भगवान् साक्षात् धरनारायणो व्ययः अनुग्रहाय भूतानां हल्से रूपं जलौकसा नमस्ते पुरुषश्रेष्ठ स्थितिः उत्पत्त्याप्येश्वरः सर्वे लीलावदारास्ते भूतानां भूतिहे तव ज्ञातुमिच्छामि अदो रूपं यदर्थं भवदातृतं न ते अरविन्दाक्ष पदोपसर्पणम् मृषा भवेत् सर्व सुहृत्प्रियात्मनः यथेतरेषां पृथगात्मनां सदा अदीदृशो यत्वपुरुद्गतं हि नः